ह्वजाम्यग्निम् प्रथमम् स्वस्तये ह्वजामि मित्रावरुणाभिहावसे ह्वजामि रात्रीम् जगतो निवेशनीम् ह्वजामि देवम् सवितारभूतये आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम् वर्त्यञ्च हिरण्ययेन सवितारथेना देवो याति भुवनानि पश्यन् यारि देवः प्रवता जात्युद्वता जाति शुभ्राभ्यान्यजतो हरिभ्याम् आदेवो जाति सविता परावतो पविश्वा दुरिता बाधमानः अभिव्रतम् कृशनैर्विश्वरोपम् हिरण्यशम्यम् यजतो बृहन्तम् आस्थाद्रथम् सविता चित्रभानः कृष्णारजांसितविषीन्दधानः विजनाञ्छवाश्रितिपादो अख्यन् रथम् हिरण्यप्र उगम् वहन्तः शश्वद्विषः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः तिस्राद्यावः सवितुर्द्वा उपस्थाम् एकाजवस्य भुवने विराशाट् आणिन्नरथ्यवमृताधितस्थुरिह ब्रवीतुज उतच्चिकेतत् विसुपर्णो अन्तरिक्षाण्यख्यद्गभीरवे पा असुरः सुनीथः क्वेदानीम् शौर्यः कश्चिकेतकदमान्याम् रश्मिरस्याततान अष्टौ व्याख्यत्ककुभः पृथिव्यास्त्रे धन्वजो जना सप्त सिन्धोन हिरण्याक्षः सविता देव आघाद्दधद्रत्ना दाशुषे वार्याणि हिरण्यपाणिः सविता विचरषणिरुभेद्या वा पृथिवी अन्तरीयते अपामी भाम् बाधते वेति सूर्यमभिकृष्णेन रजसाद्या वृणोति हिरण्यहस्तो असुरस्वनेधः स्वमृळीकस्व वा यात्वर्वाङ् अपसेधन् रक्षसो जातु धानानस्थाद्देवः प्रतिदोषम् गृणानः ये ते पन्था सवितः पूर्व्यासो रेणवस्वकृता अन्तरिक्षे तेभिर्नो अद्य पदिभिः सुखेभिरक्षा च नो अधि च ब्रूहि देवा